अथ द्वादशस्तोत्रे एकादशोऽध्यायः उदीर्णमजरं दिव्यममृतस्यन्द्यधीषितुः आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् सर्ववेदपदोद्गीतमिन्दिराधारमुत्तमम् आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् सर्वदेवादिदेवस्य विदारितमहत्तमः आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् उदारमादरान्नित्यमनिन्द्यं सुन्दरीपतेः आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् इन्दीवरोदरनिभं सुपूर्णं वादिमोहदम् आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् दातृसर्वामरैश्वर्यविमुक्त्यादेरहोवरम् आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् दूराद्दूरतरं यत्तु तदेवान्तिकमन्तिकात् आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् आनन्दतीर्थमुनिना हरेरानन्दरूपिणः आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् इति द्वादशस्तोत्रे एकादशोऽध्यायः।